अथ देव्यपरादक्षमापनस्तोत्रम् न मन्त्रम् नो यन्त्रम् तदपि च न जाने स्तुतिमहो न चाह्वानम् ध्यानम् तदपि च न जाने स्तुतिकथा न जाने मुद्रास्ते तदपि च न जाने विलपनम् परं जाने मातस्त्वदनुसरणं क्लेशहरणं विधेरज्ञानेन द्रविणविरहेणालसतया विधेया शक्यत्वात्तव चरणयोर्याच्युतिरभूत् तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति पृथिव्यां पुत्रास्ते जननि बहव सन्ति सरला परन्तेषां मध्ये विरलतरलोहं तव सुत मदीयोऽयं त्याग समुचितमिदं नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति जगन्मातर्मातस्तव चरणसेवा न रचिता न वा दत्तं देवी द्रविणमपि भूयस्तव मया तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति परित्यक्ता देवा विविधविधसेवाकुलतया मया पञ्चाशीतेरधिकमपनीते तु वयसि इदानीं चेन्मातस्तव यदि कृपा नापि भविता निरालम्बो लम्बोदर जननिकं यामि शरणम् श्वपाको जल्पाको भवति मधुपाकोपमगिरा निरातङ्को रङ्को विहरति चिरं कोटिकनकै तवापर्णे कर्णे विशति मनुवर्णे फलमिदम् जनको जानीते जननि जपनीयं जपविधौ चिताभस्मालेपो गरलमशनं दिक्पटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपति कपाली भूतेशो भजति जगदीशैकपदवीम् भवानी त्वत्पाणिग्रहणपरिपाटी फलमिदम् न मोक्षस्याकाङ्क्षा भव विभव वाञ्छापि च न मे न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः अतस्त्वां संयाचे जननि जननं यातु मम वै मृडानि रुद्राणि शिव शिव भवानीति जपत नाराधितासि विधिना विविधोपचारै किं रोक्षचिन्तनपरैर्न कृतं वचोभि श्यामे त्वमेव यदि किञ्चन मय्यनाथे धत्से कृपामुचितमम्ब परं तवैव आपत्सुमग्नस्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशी नैतच्छठत्वं मम भावयेथाक्षुधात्रिशार्ता जननीं स्मरन्ति जगदम्ब विचित्रमात्र किं परिपूर्णा करुणास्ति चेन्मयी अपराधपरम्परा परम् नहि माता समुपेक्षते सुतं मत्समपातकी नास्ति पापग्नि त्वत्समा नहि एवं ज्ञात्वा महादेवी यथा योग्यं तथा कुरु। इति श्रीमत्शंकराचार्य कृतम् देव्यपराधक्षमापनस्तोत्रम् सम्पूर्णम्।